kavim kavinamupamashravastamam jeshtharajam brahmanam brahmanaspata anashrunvannoti bhissidasadhanam prano devi saraswati vajebhir vajinivati dhenama vitriyavato ganeshaya namaha sarasvatyai namaha shri gurubhyo namaha harihi om om namo bhagavate rudraya om namaste rudra manyava uto taishave namaha namaste astu danvane pahubhyamutate namaha yata isho shivatama shivam babhuvate dhanuhu shiva sharavyayata vataya no rudra mridaya yate rudra shivastanu ragora papakashini tayanastanu vashantamaya girishantabhichakashi yamishum girishantahaste vibharshyastave shivangiritratam kurumahigumsi purusham jagat shivenavachasa twagirishachavadamasi yatha nasarvamijjagadayakshmagum sumana asat adhyavochadadivakta prathamo daivyo bhishak ahigushcha sarvanjambayan sarvasrayatu dhanyah asau yastamro aruna utababrasu mangalah ye chemagum rudra abhito dikshashrita sahasrasho vaishagum heda imahe asau yo vasarpati nilagrevo vilohitah utainam gopa adrushannadrushannudaharyah utainam vishva bhutani sadrishto mridayatinah namo astu nilagrevaya sahasrakshaya meedushe atho ye asya sattvanoham tebhyo karannamah pramuncha dhanvanastvamubayorarniyorjyam yasya te hasta ishava parata bhagavo vapa avatatya dhanustvagum sahasrakshashate sudhe nishirya shalyanamukha shivona sumanabhava vijyam dhanukka pardino vishalyo banavagum uta aneshanyasyeshava aburasya nishangatihi yate dirmi dhushta mahaste babhuvate dhanuhu tayasman vishvatastvamayakshmaya paribhuja namaste astvayudhaya natataya drishnave ubhavyam utate namo bahubhyam tavadhanvane parite dhanvano etirasman runaktu vishvataha atho ya ishudhistavare asmannidehitam namaste astu bhagavan vishveshwaraya mahadevaya त्र्यम्बकाय त्रिपुरान्तकाय त्रिकाग्निकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युञ्जयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः नमो हिरण्यबाहवे सेनान्ये दिशां च पतये नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनां पतये नमो नमः सस्पिञ्जराय कृषिमते पथिनां पतये नमो नमो बभ्लुषाय विव्याधिनेन्नानां पतये नमो नमो हरिकेशायोपवीतिने पुष्टानां पतये नमो नमो भवस्य हेत्यै जगतां पतये नमो नमो रुद्राय तथा विने क्षेत्राणां पतये नमो नमः सूताय हन्त्याय वनानां पतये नमो नमो रोहिताय स्थपतये वृक्षाणां पतये नमो नमो मन्त्रिणे वाणिजाय कक्षाणां पतये नमो नमो भुवन्तये वारिवस्कृताय औषधीनां पतये नमो नम उच्चैर्घोषाय क्रन्दयते पत्तीनां पतये नमो नमः कृत्स्नवीताय धावते सत्त्वनां पतये नमः नमः सहमानाय निव्याधिन आव्याधिनीनां पतये नमो नमः ककुभाय निषङ्गिने स्थेनानां पतये नमो नमो निषङ्गिण इषुधिमते तस्कराणां पतये नमो नमो वञ्चते परिवञ्चते सायूनां पतये नमो नमो निचेरवे परिचरायारण्यानां पतये नमो नमः श्रीकाविभ्यो जिगागुंसद्भ्योमुष्णताम् पतये नमो नमो श्रीमद्भ्यो नक्तं चरद्भ्यः प्रकृन्तानां पतये नमो नम उष्णीषिणे गिरिचराय कुलुञ्चानां पतये नमो नम इषुमद्भ्यो धन्वाविभ्यश्च वो नमो नम आदन्वानेभ्य प्रतिदधानेभ्यश्च वो नमो नम आयच्छद्भ्यो विसृचद्भ्यश्च वो नमो नमोऽस्यद्भ्यो विद्यद्भ्यश्च वो नमो नम आसीनेभ्य शयानेभ्यश्च वो नमो नम स्वपद्भ्यो जाग्रभ्यश्च वो नमो नम तिष्ठद्भ्यो दाव भ्यश्च वो नमो नम सभाभ्यः सभापतिभ्यश्च वो नमो नमो अश्वेभ्यो अश्वपतिभ्यश्च वो नमः नम आव्याधिनीभ्यो विविध्यन्तेभ्यश्च वो नमो नम उगणाभ्यः त्रिगुंहतेभ्यश्च वो नमो नमो गृत्सेभ्यो गृत्सपतिभ्यश्च वो नमो नमो व्रातेभ्यो व्रातपतिभ्यश्च वो नमो नमो गणेभ्यो गणपतिभ्यश्च वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो नमो महद्भ्यः शुल्लकेभ्यश्च वो नमो नमो रथेभ्यो रथेभ्यश्च वो नमो नमो रथेभ्यो रथपतिभ्यश्च वो नमो नम सेनाभ्यः सेनानिभ्यश्च वो नमो नमः శత్రుభ్యః సంగ్రహీతృభ్యశ్చ వో నమో నమస్తక్షభ్యో రథకారేభ్యశ్చ వో నమో నమః కులాలేభ్యః కర్మారేభ్యశ్చ వో నమో నమః పుంజిష్టేభ్యో నిషాదేభ్యశ్చ వో నమో నమ ఇషుకృద్భ్యో ధన్వకృద్భ్యశ్చ వో నమో నమో మృగయుభ్యశ్వనిభ్యశ్చ వో నమో నమ స్వభ్యశ్వపతిభ్యశ్చ వో నమః నమో భవాయ చ రుద్రాయ చ నమః శర్వాయ చ పశుపతయే చ నమో నీలగ్రీవాయ చ శితికంఠాయ చ నమః కపర్దినే చ యుక్తకేశాయ చ నమః సహస్రాక్షాయ చ శతధన్వనే చ నమో గిరిశాయ చ శిపివిష్టాయ చ నమో మీడుష్టమాయ చేషుమతే చ నమో రస్వాయ చ వామనాయ చ నమో బృహతే చ వర్షీయసే చ నమో వృద్ధాయ చ సంవృద్ధ్వనే చ నమో అగ్ర్యాయ చ ప్రథమాయ చ నమః ఆశవే చాజిరాయ చ నమః శీఘ్రయాయ చ శీభ్యాయ చ నమః ఊర్మ్యాయ చావస్వన్యాయ చ నమః శ్రోతస్యాయ చ వేప్యాయ చ నమో జ్యేష్ఠాయ చ కనిష్ఠాయ చ నమః పూర్వజాయ చ పరజాయ చ నమో మధ్యమాయ చ పగల్పాయ చ నమో జగన్యాయ చ బుద్ధ్యాయ చ నమః సోభ్యాయ చ ప్రతిసర్యాయ చ నమో యామ్యాయ చ క్షేమ్యాయ చ నమః ఉర్వర్యాయ చ ఖల్యాయ చ నమః శ్లోక్యాయ చావసాన్యాయ చ నమో వన్యాయ చ కక్ష్యాయ చ నమః శ్రవాయ చ ప్రతిశ్రవాయ చ నమః ఆశుషేణాయ చాశురథాయ చ నమః శూరాయ చావబిందతే చ నమో వర్మిణే చ వరూథినే చ నమో బిల్మినే చ కవచినే చ నమః శ్రుతాయ చ శ్రుతసేనాయ చ నమో దుందుభ్యాయ చ హనన్యాయ చ నమో దృష్ణవే చ ప్రముషాయ చ నమో దూతాయ చ ప్రహితాయ చ నమో నిషంగిణే చేచుధిమతే చ నమః తీక్ష్ణేశవే చ యుధినే చ నమః స్వాయుధాయ చ సుధన్వనే చ నమః శ్రుత్యాయ చ పత్యాయ చ నమః కాట్యాయ చ నీప్యాయ చ నమః సోద్యాయ చ సరస్యాయ చ నమో నాద్యాయ చ వైషంతాయ చ నమః కోప్యాయ చ వట్యాయ చ నమో వర్ష్యాయ చ వర్ష్యాయ చ నమో మేఘ్యాయ చ విద్యుత్యాయ చ నమః ఈద్రియాయ చ తప్యాయ చ నమో వాద్యాయ చ రేష్మ్యాయ చ నమో వాస్తవ్యాయ చ వాస్తుపాయ చ ఓం హర 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 ఓం నమః సోమాయ చ రుద్రాయ చ నమస్తామ్రాయ చారుణాయ చ నమః శంఘాయ చ పశుపతయే చ నమః ఉగ్రాయ చ భీమాయ చ నమో అగ్రే వధాయ చ దూరే వధాయ చ నమో హంత్రే చ హనీయసే చ నమో వృక్షేభ్యో హరికేశేభ్యో నమస్తారాయ నమః శంభవే చ మయోభవే చ నమః శంకరాయ చ మయస్కరాయ చ నమః శివాయ చ శివతరాయ చ నమస్తీర్త్యాయ చ కూల్యాయ చ నమః పార్యాయ చ వార్యాయ చ నమః ततरणाय चोत्तरणाय च नमः आतार्याय च लाग्याय च नमः शष्प्याय च पेन्याय च नमः स्विकत्याय च प्रवाह्याय च नम इरिण्याय च प्रपत्याय च नमः किगुंशिलाय च क्षयणाय च नमः कपर्दिने च पुलस्तये च नमो गोष्ठ्याय च गृह्याय च नमः सल्प्याय च गेह्याय च नमः कार्क्याय च गह्वरेष्ठाय च नमो हृदयाय च निवेश्याय च नमः पागुंसव्याय च रजस्याय च नमः शुष्क्याय च हरित्याय च नमो लोप्याय चोलप्याय च नमः ऊर्व्याय च सूर्व्याय च नमः पर्ण्याय च पर्णशद्याय च नमो पघुरमाणाय चाभिघ्नते च नमः आखिदते च प्रखिदते च नमो वक्किरिकेभ्यो देवानागुं हृदयेभ्यो नमो विक्षीणकेभ्यो नमो विचिन्वत्केभ्यो नम आनिर्हतेभ्यो नम आमीवत्केभ्यः द्रावे अन्धसस्पते दरिद्रन्नीललोहिता एषाम् पुरुषाणामेषाम् पशूनाम् मा मे मारोमो येषाम् किञ्चनाममत् या ते रुद्रशिवा तनो शिवा विश्वाः भेषजे शिवा रुद्रस्य भेषजे तया नो मृडजीवसे इमागुम् रुद्राय तवसे कपर्दिने क्षयद्वीराय प्रभरामहे मतिम् यथा न शमसद्विपदे चतुष्पदे विश्वम् पुष्टम् ग्रामे अस्मिन्ननातुरम् मृडानो रुद्रोतनोमयस्कृति क्षयद्वीराय नमसा विधेमते यच्छम् च योश्च मनुराय जे पिता तदश्यामतव रुद्रप्रणीतौ मानो महान्तमुतमानो अर्भकम् मान उक्षन्तमुतमान उक्षितम् मानो वदे पितरम् मोत मातरम् प्रियामानस्तनुवो रुद्ररीरिषः मानस्तोके तनये मान आयुषि मानो गोषु मानो अश्वेषुरीरिषः वीरान्मानो रुद्रवामितो वजिर्हविष्मन्तो नमसा विधेमते आराते गोग्न उत पूरुषग्ने क्षयद्वीराय सुम् नमस्मेते अस्तु रक्षा च नो अधि च देव प्रोयदा च नः शर्म यच्च द्विबर्हा स्तुहि श्रुतम् गत्त सदम् युवानम् मृगन्न भीममुपहत्वमुग्रम् मृडाचरित्रे रुद्रस्तवानो अन्यन्ते अस्मन्निवपन्तु सेनाः परिणो रुद्रस्य हेतिर्णक्तु परित्वेषस्य दुर्मतिरघायोः अवस्थिरा मगवद्यस्तनुष्वमीडोस्तोकायतनयाय मृडया मीडुष्टमशिवतमशिवो न सुमना भव परमे वृक्ष आयुधम् निदाय कृत्यम् वसा न आचर पिनाकम् बिभ्रदागहे विकिरित विलोहित नमस्ते अस्तु भगवः यास्ते सहस्रगुम् एतयोर्न्यमस्मन्निवपन्तु ताः सहस्राणि सहस्रदा बाहुवोस्तव हेतयः तासामीशानो भगवः पराचीनामुखा कृते सहस्राणि सहस्रशो ये रुद्रा अधिभूम्याम् तेषागुं सहस्रयोजने वधन्वानि तन्मसि अस्मिन् महत्यर्णवेऽन्तरिक्षे भवाधि नीलग्रीवाशिति कण्ठा शर्वा अधः क्षमाचराः नीलग्रीवाशिति कण्ठादिवगुं रुद्रा उपश्रिताः ये वृक्षेषु सस्पिञ्जरा नीलग्रीवा विलोहिताः ये भूता नामधिपतयो विशिखासक्कपर्दिनः ये अन्येषु विविद्यन्ति पात्रेषु पिबतो जनान् ये पताम् पथिरक्षय ऐलभृदायव्युदः ये तीर्थानि प्रचरन्ति श्रिकावन्तो निषङ्गिनः य एतावन्तश्च भूयागुंसश्च दिशो रुद्रावितस्थिरे तेषागुं सहस्रयोजने वधन्वानि तन्मसि नमो रुद्रेभ्यो ये पृथिव्याम् येऽन्तरिक्षे ये दिवि येषामन्नम् वातो वर्षमिषवस्तेभ्यो दश प्राचीर्दश दक्षिणा दश प्रतिचीर्दशोदेचीर्दशोर्ध्वास्तेभ्यो नमस्ते नो मृडयन्तु तेयम् दिष्मो यश्च नो द्वेष्टितम् भोजम् भेदता त्र्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव वन्दनान् मृत्योर्मुक्षीयमामृतात् यो रुद्रो अग्नौ यो अप्सु य ओषधीषु यो रुद्रो विश्वा भुवनादिवेश तस्मै रुद्राय नमो अस्तु येते सहस्रमयुतम् पाशा मृत्योर्मर्त्याय हन्तवे तान्यज्ञस्य वायया सर्वानवयजामहे मृत्यवे स्वाहा मृत्यवे स्वाहा प्राणानाम् ग्रन्थिरसि रुद्रो मा विशान्तकः तेनान्नेनाप्यायस्वा नमो रुद्राय विष्णवे मृत्युर्मे पाहि तमुष्टु हि अश्विशुसुदन्वायो विश्वस्य क्षयति भेषजस्य यक्ष्वा महेशौ मनसाय रुद्रम् नमो विद्देवमसुरम् दुवस्य अयम् मे हस्तो भगवानयम् मे भगवत्तरः अयम् मे विश्वभेषजो यगुम् शिवाभिमर्शनः ॐ शान्ति शान्ति शान्तिः ॐ अग्ना विष्णो सजोषसे मा वर्धन्तु वाङ्गिरः द्युम्नैर्वाजेभिरागतम् वाजश्च मे प्रसवश्च मे प्रयतिश्च मे प्रसितिश्च मे भीतिश्च मे क्रतुश्च मे स्वरश्च मे श्लोकश्च मे श्रावश्च मे श्रुतिश्च मे ज्योतिश्च मे सुवश्च मे प्राणश्च मे पानश्च मे व्यानश्च मे शुश्च मे चित्तम् च माधीतम् च मे वाक् च मे मनश्च मे चक्षुश्च मे श्रोत्रम् च मे दक्षश्च मे बलम् च मओजश्च मे सहश्च मायुश्च मे जरा च मात्मा च मे तनोश्च मे शर्म च मे वर्म च मेऽङ्गानि च मे स्थानि च मे परोगुंषि च मे शरीराणि च मे ज्येष्ठ्यम् च माधिपत्यम् च मे मन्युश्च मे भामश्च मे मश्च मेऽम्भश्च मे जेमा च मे महिमा च मे वरिमा च मे प्रतिमा च मे वर्ष्मा च मे द्राघुया च मे വൃദ്ധം ച മേ വൃദ്ധിശ്ച മേ സത്യം ച മേ ശ്രദ്ധ ച മേ ജഗത് ച മേ ധനം ച മേ വശശ്ച മേ ത്വിശിശ്ച മേ ക്രീഡാ ച മേ മോദശ്ച മേ ജാതം ച മേ ജനിഷ്യമാണം ച മേ സൂക്തം ച മേ സുകൃതം ച മേ വിത്തം ച മേ വേദ്യം ച മേ ഭൂതം ച മേ ഭവിഷ്യത് ച മേ സുഖം ച മേ സുപഥം ച മരുദ്ധം ച മരുദ്ധിശ്ച മേ ക്ലുപ്തം ച മേ ക്ലുപ്തിശ്ച മേ മതിശ്ച മേ സുമതിശ്ച മേ ശഞ്ച മേ മയശ്ച മേ പ്രിയം ച മേനു കാമശ്ച മേ കാമശ്ച മേ സൗമനസശ്ച മേ ഭദ്രം ച മേ ശ്രേയശ്ച മേ വശ്യശ്ച മേ യശശ്ച മേ ഭഗശ്ച മേ ദ്രവിണം ച മേ യന്താ ച മേ ധർത്താ ച മേ ക്ഷേമശ്ച മേ ധൃതിശ്ച മേ വിശ്വം ച മേ മഹശ്ച മേ സംവിച്ച മേ ജ്ഞാത്രം ച മേ സോശ്ച മേ പ്രസോശ്ച മേ സേരം ച മേ ലയശ്ച മരുതം ച മേ മൃതം ച മേ യക്ഷ്മം ച മേ നാമയച്ച മേ ജീവാതുശ്ച മേ ദീർഘായുത്വം ച മേ നമിത്രം ച മേ അഭയം ച മേ സുഖം ച മേ ശയനം ച മേ സൂഷാ ച മേ സുദിനം ച മേ ഊർച്ച മേ സൂനൃതാ ച മേ പയശ്ച മേ രസശ്ച മേ ധൃതം ച മേ മധു ച മേ സഖ്യശ്ച മേ സപേതിശ്ച മേ ഋതിശ്ച മേ വൃഷ്ടിശ്ച മേ ജൈത്രം ച മഔദ്ഭിദ്യം ച മേ രയിശ്ച മേ രായശ്ച മേ പുഷ്ടം ച മേ പുഷ്ടിശ്ച മേ വിഭു ച മേ പ്രഭു ച മേ ബഹു ച മേ ഭൂയശ്ച മേ പൂർണ്ണം ച മേ പൂർണ്ണതരം ച മേ ക്ഷിതിശ്ച മേ കൂയവാശ്ച മേ നം ച മേ ക്ഷുശ്ച മേ രേഹയശ്ച മേ യവാശ്ച മേ മാശാശ്ച മേ തിലാശ്ച മേ മുദ്ഗാശ്ച മേ ഖൽവാശ്ച മേ ഗോധൂമാശ്ച മേ മസുരാശ്ച മേ പ്രിയങ്കവശ്ച മേണവശ്ച മേ ശ്യാമാകാശ്ച മേ നീവാരാശ്ച മേ അശ്മാച്ച മേ മൃത്തികാച്ച മേ ഗിരയശ്ച മേ പർവതാശ്ച മേ സികതാശ്ച മേ വനസ്പതയശ്ച മേ ഹിരണ്യം ച മേ യശ്ച മേ സേസം ച മേ ത്രപുശ്ച മേ ശ്യാമം ച മേ ലോഹം ച മേ അഗ്നിശ്ച മ ആപശ്ച മേ വീരുധശ്ച മ ഓഷധയശ്ച മേ കൃഷ്ടപച്ചം ച മേ കൃഷ്ടപച്ചം ച മേ ഗ്രാമ്യാശ്ച മേ പശവ ആരണ്യാശ്ച യജ്ഞേന കൽപന്താം വിത്തം ച മേ വിത്തിശ്ച മേ ഭൂതം ച മേ ഭൂതിശ്ച മേ വസു ച മേ വസതിശ്ച മേ കർമ്മ ച മേ ശക്തിശ്ച മേ അർദ്ധശ്ച മ ഏമശ്ച മ ഇതിശ്ച മേ ഗതിശ്ച മേ അഗ്നിശ്ച മ ഇന്ദ്രശ്ച മേ സോമശ്ച മ ഇന്ദ്രശ്ച മേ സവിതാ ച മ ഇന്ദ്രശ്ച മേ സരസ്വതീ ച മ ഇന്ദ്രശ്ച മേ പൂഷാ ച മ ഇന്ദ്രശ്ച മേ ബൃഹസ്പതിശ്ച മ ഇന്ദ്രശ്ച മേ മിത്രശ്ച മ ഇന്ദ്രശ്ച മേ വരുണശ്ച മ ഇന്ദ്രശ്ച മേ ത്വഷ്ടാ ച മ ഇന്ദ്രശ്ച മേ ധാതാ ച മ ഇന്ദ്രശ്ച മേ വിഷ്ണുശ്ച മ ഇന്ദ്രശ്ച മേ അശ്വിനോ ച മ ഇന്ദ്രശ്ച മേ మరుతశ్చ మ ఇంద్రశ్చ మే విశ్వే చ మే దేవా ఇంద్రశ్చ మే పృథివీ చ మ ఇంద్రశ్చ మే అంతరిక్షం చ మ ఇంద్రశ్చ మే ద్యౌశ్చ మ ఇంద్రశ్చ మే దిశశ్చ మ ఇంద్రశ్చ మే మూర్ధా చ మ ఇంద్రశ్చ మే ప్రజాపతిశ్చ మ ఇంద్రశ్చ మే అగుంశుశ్చ మే రశ్మిశ్చ మేదాభ్యశ్చ మేధిపతిశ్చ మ ఉపాగుంశుశ్చ మే అంతర్యామశ్చ మ ఐంద్రవాయవశ్చ మే మైత్రావరుణశ్చ మ ఆశ్వినశ్చ మే ప్రతిప్రస్థానశ్చ మే శుక్రశ్చ మే మంత్రే చ మ ఆగ్రయణశ్చ మే వైశ్వదేవశ్చ మే ధ్రువశ్చ మే వైశ్వానరశ్చ మరుతుగ్రహాశ్చ మే తిగ్రాహ్యాశ్చ మ ఐంద్రాగ్నశ్చ మే వైశ్వదేవశ్చ మే మరుత్వతీయాశ్చ మే మాయేంద్రశ్చ మ ఆదిత్యశ్చ మే సావిత్రశ్చ మే సారస్వతశ్చ మే పౌష్ణశ్చ మే పాత్నీవతశ్చ మే హారియోజనశ్చ మే ఇద్మశ్చ మే బర్హిశ్చ మే వేదిశ్చ మే ధిష్ణీయాశ్చ మే శృచశ్చ మే చమసాశ్చ మే గ్రావాణశ్చ మే స్వరవశ్చ మ ఉపరవాశ్చ మే దిశవణే చ మే ద్రోణకలశశ్చ మే వాయవ్యాని చ మే పూతభృచ్చ మ ఆదవనీయశ్చ మ ఆగ్నేర్ధం చ మే హవిర్ధానం చ మే గృహాశ్చ మే సదశ్చ మే పురోడాశాశ్చ మే పచతాశ్చ మే వవృతశ్చ మే స్వగాకారశ్చ మే అగ్నిశ్చ మే ధర్మశ్చ మేర్కశ్చ మే సూర్యశ్చ మే ప్రాణశ్చ మే శ్వమేధశ్చ మే పృథివీ చ మేధితిశ్చ మేధితిశ్చ మేద్యౌశ్చ మే షక్వరేరంగులయోదిశశ్చ మే యజ్ఞేన కల్పంతామృక్ష మే సామ చ మే సోమశ్చ మే యజుశ్చ మే దీక్షా చ మే తపశ్చ మరుతుశ్చ మే వ్రతం చ మే హోరాత్రయో వృష్ట్యా బృహద్రదంతరే చ మే యజ్ఞేన కల్పేతాం గర్భాశ్చ మే వత్సాశ్చ మే త్రయవిశ్చ మే త్రయవే చ మే దిత్యవాక్చ మే దిత్యౌహే చ మే పంచావిశ్చ మే పంచావే చ మే త్రివత్సశ్చ మే త్రివత్సా చ మే తుర్యవాక్చ మే తుర్యౌహే చ మే పష్టవాక్చ మే పష్టౌహే చ మ ఉక్షా చ మే వశా చ మ ఋషభశ్చ మే వేహశ్చ మే నడ్వాంచ మే ధేనుశ్చ మ ఆయుర్యజ్ఞేన కల్పతాం ప్రాణో యజ్ఞేన కల్పతాం పానో యజ్ఞేన కల్పతాం వ్యానో యజ్ఞేన కల్పతాం చక్షుర్యజ్ఞేన కల్పతాం శ్రోత్రం యజ్ఞేన కల్పతాం మనో యజ్ఞేన కల్పతాం వాక్ యజ్ఞేన కల్పతాం ఆత్మా యజ్ఞేన కల్పతాం యజ్ఞో యజ్ఞేన కల్పతాం ఏకా చ మే త్రిస్రశ్చ మే పంచ చ మే సప్త చ మే నవ చ మ ఏకాదశ చ మే త్రయోదశ చ మే పంచదశ చ మే సప్తదశ చ మే నవదశ చ మ ఏక వింశతిశ్చ మే త్రయో వింశతిశ్చ మే పంచ వింశతిశ్చ మే సప్త వింశతిశ్చ మే नव विगुंशतिश्च म एकत्रिगुंशच्च मे त्रयस्त्रिगुंशच्च मे चतस्रश्च मेष्टौ च मे द्वादश च मे षोडश च मे विगुंशतिश्च मे चतुर्विगुंशतिश्च मेष्टाविगुंशतिश्च मे द्वात्रिगुंशच्च मे षट्त्रिगुंशच्च मे चत्वारिगुंशच्च मे चतश्चत्वारिगुंशश्च मे षाचत्वारिगुंशच्च मे वाजश्च प्रसवश्चापिजश्च क्रतुश्च शुभश्च मूर्ध्ना च व्यश्नियश्चान्त्यायनश्चान्त्यश्च भुवनश्च भुवनश्चाधिपतिश्च इता देवहोर्मनुर्यज्ञनिर्बृहस्पतिरुग्धामदानि सगुं त्रिषद्विश्वे देवाः सूक्तवाच पृथिवीमातर्मा माहिगुंसेर्मधुमनिष्ये मधुजनिष्ये मधुवक्ष्यामि मधुवदिष्यामि मधुमतीम् देवेभ्यो वाचमुद्यासगुं शुश्रोषेण्या मनुष्येभ्यस्तं वा देवा अवन्तु शोभाय पितरोणु मदन्तु ॐ शान्ति शान्ति शान्तिः निधनपतये नमः निधनपतान्तिकाय नमः ऊर्ध्वाय नमः ऊर्ध्वलिङ्गाय नमः हिरण्याय नमः हिरण्यलिङ्गाय नमः सुवर्णाय नमः सुवर्णलिङ्गाय नमः दिव्याय नमः दिव्यलिङ्गाय नमः भवाय नमः भवलिङ्गाय नमः शर्वाय नमः शर्वलिङ्गाय नमः शिवाय नमः शिवलिङ्गाय नमः ज्वलाय नमः ज्वललिङ्गाय नमः आत्माय नमः आत्मलिङ्गाय नमः परमाय नमः परमलिङ्गाय नमः एतत्सोमस्य सूर्यस्य सर्वलिङ्गग्रस्तापयति पाणिमन्त्रम् पवित्रम् सत्यो जातम् प्रपद्यामि सत्यो जाताय वै नमो नमः भवे भवे नाति भवे भव स्वमाम् भवोद्भवाय नमः वामदेवाय नमो ज्येष्ठाय नमः श्रेष्ठाय नमो रुद्राय नमः कालाय नमः कलविकरणाय नमो बलविकरणाय नमो बलाय नमो बलप्रमथनाय नमः सर्वभूतदमनाय नमो मनोन्मनाय नमः अघोरेभ्यो अघोरेभ्यो घोरघोरतरेभ्यः सर्वेभ्यः सर्वसर्वेभ्यो नमस्ते अस्तु रुद्ररूपेभ्यः तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रप्रचोदयात् ईशानः सर्वविद्यानामीश्वरः सर्वभूतानाम् ब्रह्माधिपतिर्ब्रह्मणोऽधिपतिः ब्रह्मा शिवो मे अस्तु सदा शिवो
नमो हिरण्यबाहवे हिरण्यवर्णाय हिरण्यरूपाय हिरण्यपतये अम्बिकापतये उमापतये पशुपतये नमो नमः ऋतगुम् सत्यम् परम् ब्रह्मपुरुषम् कृष्णपिङ्गलम् ओर्ध्वरेतम् विरूपाक्षम् विश्वरूपाय वै नमो नमः सर्वो वै रुद्रस्तस्मै रुद्राय नमो अस्तु पुरुषो वै रुद्रस्तन्महो नमो नमः विश्वम् भूतम् भुवनम् चित्रम् बहुधा जातम् जायमानम् जयत् सर्वो हेण रुद्रस्तस्मै रुद्राय नमो अस्तु कग्रुद्राय प्रचेतसे मीढुष्टमायतव्यसे वोचे मशन्तमगुम् हृते सर्वो हेष रुद्रस्तस्मै रुद्राय नमो अस्तु ॐ शान्ति शान्ति शान्तिः ॐ जातवेदसे सुनवामसो मम राति यतो नितहाति वेदः स न पर्षदति दुर्गाणि विश्वानावेव सिन्धुम् दुरितात्यग्निः ताम् तपसा ज्वलन्तीम् वैरोचनीम् कर्म फलेषु जुष्टाम् दुर्गाम् देवीगुम् शरणमहम् प्रपद्ये सुतरसि तरसे नमः अग्ने त्वम् पारयानव्यो अस्मान् स्वस्तिभिरति दुर्गाणि विश्वा पोश्च पृथ्वी बहुलान उर्वी भवा तोकायतनयाय शय्यो विश्वानि नो दुर्गः जातवेद सिन्धुन्दनावा दुरितातिपर्षि अग्ने अत्रिवन्मनसा गृणानोऽस्माकम् बोध्यविता तनूनाम् ऋतनाजितगुम् सहमानमुग्रमग्निगुम् उवेम परमात् सदस्तात् स नः पर्षदति दुर्गाणि विश्वाक्षामद्देवो अतिदुरितात्यग्निः प्रत्नोषिकमेद्यो अध्वरेषु सना च होतानव्यश्च सत्से स्वाञ्चाग्ने तनुवम् विप्रयस्वात्मभ्यम् च सौभगमायजस्व गोभिर्जुष्टमयुजो निषिक्तम् तवेन्द्रविष्णोरनु सञ्चरेम नाकस्य पृष्ठमपि संवसा नो वैष्णवीम् लोक इहमादयन्ताम् कात्यायनाय विद्महे कन्यकुमारि धीमहि तन्नो दुर्गे प्रचोदयात् न कर्मणा न प्रजयादनेन त्यागेनैकेन मृतत्वमानशुः परेण नाकम् निहितम् गुहायाम् विव्राजते दद्यदयो विशन्ति वेदान्तविज्ञानसुनिश्चितार्थात् सन्न्यासयोगाद्यदयः शुद्धसत्त्वाः ते ब्रह्मलोके तु परान्तकाले परामृतात् परिमुच्यन्ति सर्वे धर्म विपापम् परमेष्मभूतम् यत्पुण्डरीकम् पुरमद्य सगुस्तम् तत्राविदग्रम् गगनम् विशोकस्तस्मिन् यदन्तस्तदुपासितव्यम् यो वेदादौ स्वर प्रोक्तो वेदान्ते च प्रतिष्ठितः तस्य प्रकृतिलीनस्य यः परस्य महेश्वरः स्वस्ति प्रजाभ्यः परिपालयन्ताम् न्यायेन मार्गेण महीमहिषाः गोब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु ॐ शान्ति शान्ति शान्तिः।